नमस्कारः सर्वेभ्यः. वर्गारम्भे मङ्गलाचरणानि. ॐ वागर्थाविव सम्प्रक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विना वधीतमस्तु मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः. धन्यवादः.
सुन्दरं भगिनि, धन्यवादः. अस्तु, अद्य पुटसङ्ख्या तु 30 आसीत् इति मन्ये, समीचीनं वा?
एकत्रिंशत् वा भगिनि?
एकत्रिंशत् भगिनि.
अस्तु अस्तु अस्तु, एकत्रिंशत्. अस्तु अस्तु, प्रथमतया आरम्भं करोतु भगिनी. सुधा भगिनी वदतु, एकं चित्रं दत्तं तत्र एकत्रिंशत् तमे पुटे, एकं चित्रम् अस्ति, अस्ति वा न वा?
अस्ति भगिनि.
चित्रं दृष्ट्वा अत्र किं भवति वदतु भगिनि? किमपि स्वस्य वाक्यानि रचयतु भगिनि. किमपि
एकः बालकः अस्ति.
एकः बालकः किं करोति?
बालकः किमपि वदति.
किमपि वदति इत्युक्ते बालकः सम्भाषणं करोति. बालकः सम्भाषणं
करोति.
कीदृशबालकः?
सः बालकः.
कीदृशबालकः इत्युक्ते किमपि विवरणं वदतु भगिनी. किमपि इत्युक्ते कीदृशबालकः इत्युक्ते धनिकः वा, विद्यार्थी वा, कीदृशबालकः?
एकः बालकः अस्ति, सः विद्यार्थी अस्ति.
सः विद्यार्थी अस्ति, उत्तमम्. इत्युक्ते विद्यार्थीबालकः सम्भाषणं करोति. उत्तमं, धन्यवादः भगिनि. शैलजा भगिनी प्रयत्न करोतु भगिनि.
आं भगिनि, आं भगिनि. सः बालकः क्रीणति फल
क्रीणाति.
सः बालकः क्रीणाति फलानि क्रीणाति.
फलानि क्रीणाति, उत्तमं. फलानि क्रीणाति, उत्तमम्. अन्य किमपि अत्र अस्ति चित्रे वदतु.
तस्य वृक्षः अस्ति.
इत्युक्ते चिन्तयतु भगिनी, विभक्तिरूपं किं तत्र?
तस्य इस् नो षष्ठी विभक्ति भगिनी, इट्स् नाट् तस्य. तत् वृक्षः अस्ति.
तत् वृक्षः
नो 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 भगिनी, सोरि, नास्ति.
चिन्तयतु,
एषः वृक्षः अस्ति. बालकः समीपे एषः वृक्षः अस्ति.
बालकः समीपे एकः वृक्षः अपि च एषः वृक्षः अस्ति. उत्तमम्.
एकः वृक्षः अस्ति.
अन्य किम्?
समीपे वसतिमन्दिरम् अस्ति. बालकः समीपे वसतिमन्दिरम् अस्ति.
अस्ति, उत्तमं. बालकः समीपे इत्युक्ते बालकः पुरतः इत्युक्ते किं?
बालकः
पुरतः किम् अस्ति?
वसतिमन्दिरम् अस्ति.
वसतिमन्दिरम् अस्ति, उत्तमं. तदेव भगिनि, सुन्दरं. कविता भगिनि प्रयत्न करोतु. भगिनि
भगिनी वसति
दत्तमेव. चित्रं पश्यतु भगिनी, तत्र दत्तमेव वसति मन्दिरम्.
वसति मीन्?
वसति इत्युक्ते रामः सीता च अयोध्यायां वसतः स्म इत्युक्ते किम्? अहं वसति. उत्तमं भगिनि. भवती मुम्बै नगरे वसति इति. अधुना अहं बेङ्गलूरुनगरे वसामि इति. वसति मन्दिरम् इत्युक्ते किम्? मन्दिरम् इत्युक्ते किं? प्रथमतया तु इति वयं जानीमः. मन्दिरम् इत्युक्ते किम्?
टेम्पल् काइंड ऑफ थिंग.
टेम्पल् तु उत्तमम्.
इट्स लाइक अ प्लेस टू ड्वेल.
वसति मन्दिरम् इज समथिंग ट्रैवलर्स हु टेक रेस्ट व्हाइल ट्रैवलिंग, हु कम एंड लिव फॉर शॉर्ट व्हाइल,
लाइक अ गेस्ट हाउस और अ लॉज.
या लाइक अ लॉज.
किंतु
वेटिंग रूम.
किमर्थं मन्दिरं तत्र दत्तं? किमर्थं तस्य नाम मन्दिरम् अस्ति? किमर्थम् अन्य किमपि निवासस्थान किमपि दत्तं? तत्र तु मन्दिरं.
Because it could be for free living, so everything whatever it is given for as a charity is considered like highest thing, like noble thing. So mandiram is something who can go come with free of cost. Is that what it means? I'm not sure.
ये temple premises पे है, तो जो temple में दर्शन करने हेतु आते हैं वो रुक सकते हैं. तो जैसे हम बोलते हैं कि lodge है या वो sanatorium जैसा बोलते हैं जो मंदिर के ही premise में रहता है, something on those lines.
मंदिरम is some. It is a roof and under the under which people stay. Is that what it means, Bhagini?
Roof under which people stay. See, mandiram is it taking, Papa ji?
Mandiram. Ishwarah graha.
Ishwarasya graha.
Ishwarasya
graha. Graham. Graha va graham. Kim? Kopi sami karo tu. Kim?
ईश्वरस्य गृहं.
गृहं, हा,
गृहं, गृहं.
नपुंसकलिङ्गं पदम् इत्युक्ते ईश्वरस्य गृहं, गृहं, हा. किन्तु चित्रम् एकं वसतिमन्दिरमस्ति चित्रे. किमर्थं मन्दिरं दत्तं? तत् प्रश्न उदेति. एकः प्रश्न उदेति, किमर्थं मन्दिरं दत्तं? हा, किमर्थं वसतिमन्दिरं? किं मन्दिरं कथं भवति तत्र? मन्दिरं मीन्स् होम्. कस्य गृहम्? ईश्वरस्य गृहम्. ईश्वरः कः?
फ्री आफ् कास्ट्.
न न, फ्री आफ् कास्ट् न. ईश्वरस्य गृहम्, उत्तमम्. ईश्वरः कः?
सर्वत्र.
सर्वत्र ईश्वर एव. सर्वम् ईश्वरम् ईश्वरः तेन कारणेन वसति मन्दिरम् इत्युक्ते यः कोऽपि तत्र वसति सः ईश्वरः तदेव
कोऽपि न वसति
तदपि ईश्वरस्य तदपि ईश्वरः तत्र मनुष्यवानव किमपि तत्र अस्ति इत्युक्ते सर्वे स्थानानि सर्वे सर्वत्र ईश्वरः इति तेन मन्दिरम् इति दत्तः
ईश्वरः मूर्ति
हा ईश्वरस्य मूर्तिः अपि च मूर्ति वानव दीप अस्ति चेत् अपि मूर्ति एव इत्युक्ते अस्माकं गृहे तु एकं दीपं तु अस्ति सर्वेषु गृहेषु भारतदेशे किमपि मूर्ति वा दीपं वा तु अस्ति वसतिमन्दिरमपि एकम् अस्ति चेत् मन्दिरं भवति उत्तमम् उत्तमं धन्यवादः भगिनि कविता भगिनी पुनः वदतु भवत्याः वाक्यं
मैंने बोला ही नहीं था वाक्य एक्चुअली मैंने तो ये पूछा था कि इसका मीनिंग क्या है तत्र एकम मंदिरम अस्ति
तत्र एकम मंदिरम अस्तु अहम् आप्ते शब्द आप्टे महोदयस्य रचितवान् एकं संस्कृत हिन्दी कोशः मम पार्श्वे अस्ति तस्मिन् एकं मन्दिरम् इति अहं पश्यामि अधुना मन्दिरम् एकं पदमस्ति तत्र किं दत्तम् आप्टे महोदयेन किं लिखितं रहने का स्थान आवास महल भवन आवास रहने का घर नगर अपि मन्दिरं शिबिरम् अपि मन्दिरं देवालय मन्दिरमेव इत्युक्ते यदि ईश्वरः सर्वत्र सर्वत्र मन्दिरमेव ईश्वरस्य गृहम् चित्रे एकं मन्दिरम् अस्ति अन्य किमपि वदतु कविता भगिनी चित्रे किं दत्तं किम् अस्ति किं भवति किमपि वदतु
नहीं नहीं आ रहा है भगिनी
प्रयत्न करोतु भगिनि मन्दिरस्य पुरतः मन्दिर के सामने मन्दिरस्य पुरतः किम् अस्ति तत्र कानिचन जनानि सन्ति सम पीपल आर देयर चित्रे वृक्षद्वयं स्तः चित्रे किं बहूनि फलानि तत्र सन्ति कुत्र सन्ति बहूनि फलानि ठेला को क्या बोलेंगे पापा वदतु वदतु भगिनि ना वाहिका नहीं वो एक बहुत प्रसिद्ध वो नाटक है ना मिट्टी का क्या उसमें पद जो यूज करते हैं मिट्टी शटका शटका मृत क्या नाम है मर्ति हा मृतशटक शटक इत्युक्ते किं ठेला ठेला इत्युक्ते कार्ट ठेला यू अण्डर्स्टाण्ड् न एव्रिबडि फलानि कुत्र सन्ति
हेण्ड् आन् कार्ट्
हा 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 फलानि कुत्र सन्ति भगिनि फलानि शकटे उपरि
शकटे उपरि सन्ति
हा शकटे उपरि सन्ति उत्तमम् उत्तमं धन्यवादः शकटे अधोभागे शकटस्य अधः किम् अस्ति सुधा भगिनी
शकटस्य अधोभागे चक्राणि सन्ति
हा चक्राणि सन्ति किमपि जीव अस्ति वा तत्र
शकटस्य पार्श्वे एकः कुक्कुरः अस्ति
कुक्कुरः वा कुक्कुरः इत्युक्ते कुक्करः वा
कुक्कुरः
कुक्कुरः कुक्कुरः हा कुक्कुरः अन्यथा एकम् अन्यपदम् अस्ति तत्र शुनकः
शुनकः
शुनकः हा सर्वे पश्यतु डाग् इति पश्यतु संस्कृत स्पोकन् संस्कृत मध्ये किं दत्तं तत्र श्वन् श्वा श्वान् कुक्कुरः कुक्कुरः अपि च
कुक्कुरः इस् केट् भगिनि So it seems like dog only. Shukan. Shunakaha.
Kukkuraha ityukte dog. Dattam.
Cat. I think. Is it not cat?
Cat ityukte bidala.
No, no. Hen bagini. Kukkuraha means hen, I think.
Ah. Rooster. Kukkat. Yeah. That is rooster. No. No. Rooster anyapadam asti. Eka nimisha. रूस्टर इत्युक्ते
भगिनी वो तो हम शायद हिंदी में बोलते हैं कुकड़ू को बोलता है वो इसीलिए आप उसके साथ लिंक कर रहे हैं
ना 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 कुक्कुटा कुक्कुटा
रूस्टर इज कुक्कुटा
हां कुक्कुटा
नमस्कारः भगिनी क्षम्यतां विलंबेन आगच्छन्
हा ना ना चिंता मास्तु भगिनी स्वागतं शिवरूप भगिनी
अद्य किं कर
वयम् एकत्रिंशत्तमे पुटे एकं चित्रं दत्तम्
आं भगिनि
तत् चित्रं दृष्ट्वा स्वस्य वाक्यानि रचयतु इति अहं वदामि
आं भगिनि
हा तदेव वयं कुर्मः अस्तु हा रूस्टर् इत्युक्ते कुक्कुटः कुक्कुटः एकः कुक्कुटः किन्तु शुनकः अस्ति चेत् कुक्कुरः र आयाति अन्ते शुनकः तत्र शुनक एव दत्तं 1 2 3 4 5 6 वर्ड् हा शुनक शुनकः एकः शुनकः अस्ति उत्तमम् उत्तमं सुधा भगिनी अन्या किमपि वदतु हिल् वा अन्य अन्य पर्वत लघुपर्वत किमपि
पर्वत ओके
वदतु
मन्दिरस्य पृष्ठतः एक पर्वतः अस्ति
हा एकः पर्वतः इत्युक्ते पर्वतः पर्वतः न पर्वता भूमिः अस्ति स्त्रीलिङ्गपदमस्ति पर्वत नो पार्वत अस्ति एकं
पर्वत इस् पुंलिङ्गम् ओन्लि
हा पर्वत इत्युक्ते पुंलिङ्गं पदं पार्वत इत्युक्ते विशेषणपदं हिलि हिलि पार्वत अस्तु भगिनी उत्तमम् एकः लघुपर्वतः कुत्र अस्ति
मन्दिरस्य पृष्ठतः अस्ति
मन्दिरस्य पृष्ठतः उत्तमम् उत्तमं शिवरूपा भगिनी
आं भगिनि
स्वस्य वाक्यं किमपि रचयतु
आं भगिनि माता अपि च पुत्री मन्दिरं गच्छति
माता पुत्री च मन्दिरं गच्छति मन्दिरस्य पुरतः किम् अस्ति भगिनी
मन्दिरस्य पुरतः बहु किमपि अस्ति बहु अस्ति भगिनि एकः बालकः विक्रकारः अस्ति वसतिमन्दिरम् अस्ति
अपि च
विद्युत्
विशालविद्युत् वदतु
विशालविद्युत् उसको क्या बोलते हैं भगिनी
विद्युत् दीपम्
विशाल विद्युत् दीपम् अस्ति
विशालं विद्युत् दीपम्
विद्युत् विशालं
लिङ्गं किं तत्र
विशालं विद्युत् दीपं लिङ्गं नपुंसकलिङ्गं वा भगिनि
एकवारं
पश्यामि भगिनि अहं पश्यामि
तत्र दत्तमेव अभ्यासपुस्तके एव तत्र दत्तम्
Can even I search for street light? So it says Margadipa, masculine.
Margadipa asti, uttamam tada sundaram. Margadipa asti. Vidyudipaha. Vidyudipaha tu pumlinga padam.
Pumlinga. Vidyudipaha asti.
Vishala.
Vishala.
Vishalaha vidyudipaha asti.
Magini.
अन्यथा मार्गदीपः अस्ति यथा कविता भगिनी उक्तवती उत्तमं धन्यवादः अधुना किं कुर्मः चित्रस्य अधोभागे किमपि दत्तम् एकं पठित्वा अग्रे सरेम अस्तु शैलजा भगिनी पठतु भगिनी किं दत्तं तत्र
विक्रयकः दक्षिणतः
भगिनी
विक्रयकः
न भगिनी एकनिमिष एकत्रिंशत्तमे पुटे चित्रस्य अधोभागे किं दत्तम्
अधोभागे एकः जीवः अस्ति श्रुतः वा
शृणोतु भगिनि
अधोभागे
चित्रस्य अधोभागे किमपि लिखितवन्तः तत्र
शब्दः भगिनि पुरतः वामतः
न
पुरतः
आं भगिनि तत्र दत्तम्
आं भगिनि
सः केशवः
सः केशवः केशवस्य पुरतः शकटः अस्ति
धन्यवादः भगिनि सुधा भगिनी
धन्यवादः भगिनि
आं भगिनि तस्य पृष्ठतः वसतिमन्दिरम् अस्ति तस्य दक्षिणतः देवालयः अस्ति
दक्षिणतः इत्युक्ते किं
टु द रैट् आफ्
रैट् सैड्
दक्षिणतः किमर्थं दक्षिण साउथ इंडिया दक्षिण भारत साउथ इंडिया अस्ति किमर्थं राइट साइड चिंतयतु
इंडिया के दक्षिण इज आल्सो कॉल्ड साउथ नो भगिनी इन डायरेक्शंस वाइज
तदेव मम प्रश्न भगिनि.
मेबी फार् इण्डिया द सौत् इण्डिया इस् रैट् हेण्ड् भगिनि.
न न इति पश्यतु भगिनि, यदि वयं किं मङ्गलं मङ्गलदिशा किम्
नार्त् अण्ड् ईस्ट्
पूर्वदिशा.
सूर्योदय कुत्र भवति?
पूर्व अस्ति.
अपि च यदि वयं पूर्व मुख आसीत् तदनन्तरं दक्षिण इत्युक्ते किम्?
On my right.
दक्षिणभारत एव. See, if you are standing in India looking east, where is your right? Dakshina only. Kanyakumari will be to your right, no? You are looking eastward from India. Where will south be? Where will right be? Dakshin only. That is why it is called Dakshin. Because Dakshin, even in asanas, yadi vayam yogasanam kurmaha, disha kim samichinam? Mangala disha kim? Purva meva. Surya namaskar, purva meva. Tadanantaram, dakshinataha ityukte, cardinal direction south. किन्तु अस्माकं कृते दक्षिण एव. अवगतं वा सर्वे
भगिनि?
तस्य दक्षिणतः देवालयः अस्ति. उत्तमं, धन्यवादः भगिनी. कविता भगिनी?
तस्य वामतः वृक्षः अस्ति. तस्य वामतः वृक्षः अस्ति.
केशवस्य पुरतः शकटः आसीत्. केशवस्य या तु फिर् शकटः किमपि न, तस्य पृष्ठतः पापा पृष्ठतः वसति मन्दिरम् आसीत्. पृष्ठतः इत्युक्ते पीछे. केशवस्य पीछे किमस्ति? नो, केशव इस् फल्वला. ओन्लि देन् इट् विल् वर्क् न, अदर्वैस् द सेण्टेन्स् इट् वोण्ट् वर्क्. वदतु कविता भगिनी, क्षम्यतां.
जी, तस्य वामतः वृक्षः अस्ति. तो मतलब दक्षिणतः बोला है राइट साइड, सो वामतः विल बी लेफ्ट साइड.
वामतः लेफ्ट, उत्तमम्. इत्युक्ते कार्डिनल डायरेक्शन उत्तरदिशा इत्युक्ते वामतः, दक्षिणदिशा इत्युक्ते राइट. अवगतं वा? लुक् इट् युर् हेण्ड्, स्वस्य हस्ते पश्यतु. वामतः दक्षिणतः, वामतः दक्षिणतः, वामतः दक्षिणतः. उत्तमम् उत्तमं कविता भगिनी. तस्य वामतः वृक्षः आसीत् अस्ति. कस्य वामतः वृक्षः अस्ति भगिनी?
देवालयस्य. देवालय के
किमर्थं देवालय
लेफ्ट साइड में? सॉरी.
अस्तु 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 अस्तु. भगिनी
दीपशिका भगिनी नहीं ज्वाइन कर रहे
हैं अभी, वो can't, आज डिनर लेट हुआ ना, शी इज क्लीनिंग अप एंड ऑल दैट, हस्बैंड लेट आई.
ऑलराइट सॉरी, यू वर सेइंग समथिंग.
अस्तु, अहम मन्ये तस्य, यदि तस्य केशवः अस्ति केशवस्य वामतः वृक्षः अस्ति अपि, तदपि समीचीनम्.
राइट,
उत्तमम्. मन्दिरस्य अपि समीचीनम्, उत्तमं भगिनि. अन्य अग्रिमं पठतु भगिनि.
देवालयस्य उपरि कलशः अस्ति. देवालय के ऊपर कलश है.
कलशः अस्ति, उत्तमम् उत्तमम्. देवालयस्य उपरि, उपरि कीदृशपदं तत्र, एकवारं पश्यतु स्पोकन् संस्कृत मध्ये. उपरि कीदृशपदं तत्र,
इट्स अ उपरि इज एन इनडिक्लेनेशन, એટલે ओलू
अव्ययपदम्.
अव्ययपदम्,
अव्ययपदम् इत्युक्ते
त्रिषु लिङ्गेषु एण्ड् त्रिषु वचनेषु समान एव.
तदेव भगिनि, उपरि उपरि एव, किमपि भेदः न, परिवर्तनं न भवति तत्र. उत्तमं, देवालयस्य उपरि कलशः अस्ति. अधुना शिवरूपा भगिनी पठतु.
शकटस्य अधः शुनकः अस्ति.
शकटस्य अधः शुनकः अस्ति इत्युक्ते
गाड़ी के नीचे एक कुत्ता है.
तदेव. कौन सी गाड़ी?
जो विक्रेता सेल कर रहा है कुछ.
वो
उसको शकट बोलते हैं.
उत्तमम्. शकटस्य अधः शुनकः अस्ति. अधः कीदृश पदम्?
एकनिमिष भगिनी, अहं वदामि. अधः, अधः मीन्स् स बिलो. It's also indeclaimable.
संस्कृतभाषायां वदतु.
संस्कृतभाषायाम् अव्ययपदः, अव्ययपदम्.
किम् अव्ययपदम्?
अधः उपरि अव्ययपदम्.
अधय, अधः उपरि च,
उपरि च
अव्ययपदे,
अव्ययपदे
स्तः,
स्तः अव्ययपदे स्तः,
स्तः. उत्तमम्, उत्तमम्. एकं कोष्टकं दत्तं तत्र, पठतु तत्र भगिनि.
आं भगिनि. पुरतः, पुरतः इत्युक्ते इट्स् इन् फ्रण्ट्, फ्रण्ट् आफ़्,
सामने,
सामने. पृष्ठतः, सो बेक् सैड् आफ़् अवर्स्,
पीछे,
पीछे. वामतः, लेफ्ट् सैड्. दक्षिणतः, रैट् सैड्. उपरि, अबौ, अबौ लैक् अप्. अधः, नीचे,
नीचे. उत्तमम्.
Why is right side called Daksh? Why?
Because you face east, you face Mangal. Suryodayah tatra bhavati, that is why you face
east.
Right. Papa is asking why right, why south is right, because when you face east, see, for all most kriyas we face east. For most puja also we face east, hai na, mangala, that's a mangal disha. So then towards our right is dakshina, and dakshina is also mangala suchaka. Tena we always take clockwise, always puja karte clockwise to God. Always our right side is towards murtis or mandir or people or tulsi or whatever.
Why do you call your right hand Dakshin?
The question is Dakshin. For Dana. No? Then?
Daksh means expert.
हाँ दक्ष इत्युक्ते एक्सपर्ट उत्तमं तदेव निपुण एक्सपर्ट हैंड यू ऑफर द हाईएस्ट उत्तमं हाँ हाँ तदेव तदेव उत्तमं उत्तमं दक्ष इत्युक्ते निपुणः इत्युक्ते एक्सपर्ट इत्युक्ते सामान्यतया यत्किमपि संस्कृत्याम् अस्ति तत्तु सामान्य एव अदर्वैज् यु केन् नाट् हेव् अ कल्चर् आल् ओवर् द ह्यूमन्स् आर् रैट् हेण्डेड् उत्तमं दक्ष इत्युक्ते दक्ष इत्युक्ते किं निपुणः इत्युक्ते स्किल्ड् सुपीरियर् मोर् स्किल्ड् एण्ड् सुपीरियर् That is why it is called Dakshina. Uttamam. Uttamam prashna. Samichinam. Dhanyavada, Papaji. Astu. Purataha prashtataha. Vamataha dakshinataha. Upari adhaha. Astu. Aduna, Sailija Bhagini, swasya kimapi vakyam rachayatu. Yatkimapi asti tatra. Aduna bhavati swasya grahe asti. भवत्याः पुरतः भवत्याः पुरतः किम् अस्ति मम प्रश्न भवत्याः पुरतः किम् अस्ति
वन् मिनिट् भगिनि मम षष्टि विभक्ति ऐ हाव् टु सर्च् फोर्
मम इत्युक्ते षष्टि उत्तमं भगिनि मम एव षष्टि तु मम एव भव भवत्याः पुरतः किम् अस्ति
वन् मिनिट् भगिनि षष्टि विभक्ति ममे ममे
मम एव
मम एव भगिनि मम और् ममे आं भगिनि ओके मम और् मे आं भगिनि मम और् मे मम पुरतः एकं सो ऐ वाण्ट् टु से लैक् बेबि प्लाण्ट् समथिङ्ग् लैक् देट्
सो
लघु वन् मिनिट् भगिनि ऐं सर्चिङ्ग् फोर् प्लाण्ट्
कोऽपि जानाति वा
वृक्षः इस् ट्री अण्ड् प्लाण्ट् इस् सस्यम् आं भगिनि एकं सस्य द्वे सस्ये स्तः द्वयो
प्लाण्ट् पौधा को सस्य बोलते हम लोग के वर्ग में
सस्य इज नपुंसकलिंगम एंड प्लांट इट सेज प्लांट हियर भगिनी
प्लांट एव एकम सस्यम अस्ति लघु सस्यम अस्ति
लघु सस्यम अस्ति
लघु सस्य
एंड इफ आई वांट टू से द्वयो सस्य if I want to say two plants
napumsakalingam napumsakalingam
dve bagini yes dve sasye saha
mama puratah dve sasye saha uttamam
saha
uttamam sudha bagini bhavatyah prishtatah kim asti
mama prishtatah एकम् आसन्दी अस्ति
एकम् आसन्दी वा
आसन्दी इति स्त्रीलिङ्गपदमस्ति
स्त्रीलिङ्गपदम्
एका एका आसन्दी अस्ति
एका आसन्दी अस्ति उत्तमम् हा सुन्दरं धन्यवादः भगिनी
धन्यवादः
कविता भगिनी भवत्याः दक्षिणतः किम् अस्ति
मम दक्षिणतः पुस्तके अस्ति
पुस्तके अस्ति वा
Yeah, there are books, I want to say. No. Pustakani asti.
Pustakani. Kriyapadam kim samikarotu?
Santi. Pustakani santi.
Eee, uttamam. Uttam. Puna vadatu?
Sorry. मम दक्षिणतः पुस्तकानि सन्ति
कति पुस्तकानि सन्ति
द्वे पुस्तकानि नो
पुस्तकानि सन्ति
द्वे तु न नै नै देयर आर टू एंड देन देयर आर टू सो देयर आर टोटल फोर
वदतु वदतु कथं वदामः
मम दक्षिणतः चत्वारि पुस्तकानि सन्ति
चत्वारि पुस्तकानि सन्ति उत्तमं सुन्दरम् अस्तु ओ आयि दीपा अस्तु शिवरूपा भगिनी भवत्याः वामतः किम् अस्ति
मम वामतः जवनिका अस्ति भगिनि वातायनम् अपि जवनिका अस्ति वातायनम् अस्ति वातायनम् उपरि जवनिका अस्ति
वातायनस्य पुरतः जवनिका
वातायनस्य पुरतः जवनिका अस्ति
जवनिका अस्ति जवनिकस् जवनिका जवनि जवनि जवनिका इत्युक्ते लता लतायाः जवनिकायाः वर्णः कः
जवनिकाः वर्णाः श्वेतः अस्ति भगिनि
ओ अस्ति वा उत्तमम् उत्तमं धन्यवादः भगिनि
धन्यवादः भगिनि
हा अस्तु पापाजी भवतः अधः किम् अस्ति
मम अधः
कप् इत्युक्ते किम् अत्र दत्तं शब्द अभ्यासपुस्तके पुटसङ्ख्या अष्टादश अपि च किम् अस्ति चषकः वदतु अधः अधः तु अव्ययपदम् एकः चषकः अस्ति चषके किम् अस्ति जलम् अस्ति उत्तमम् उत्तमं कियत् जलम् अस्ति कियत् जलम् अस्ति तत्र कियत् जलम् अर्धपूरितः जलम् अस्ति उत्तमं धन्यवादः अस्तु दीप्शिका भगिनी नमस्कारः स्वागतम् दीक्षिका भगिनी पृच्छामि वा? हा भगिनी, भवत्याः उपरि किम् अस्ति? खाली अस्तु, भवत्याः उपरि विद्युद्दीपः अस्ति. उत्तमम्. उत्तमम् उत्तमं सुन्दरम्. अन्य कोऽपि प्रश्नः अस्ति वा तत्र? अस्तु, अद्य वयं किं किं बोधनं कृतवन्तः? नियमः कः तत्र? किमपि यत्किमपि अवबोधनं भवति वदतु, कोऽपि वदतु. अवबोधनमित्युक्ते बोधनमित्युक्ते
क्या समझ में आया?
उत्तमं, तदेव वदतु. नियमः कः तत्र?
डायरेक्शन्स् के लिए नियम.
व्याकरणे नियमः कः? यदि वयं वाक्यम् एकं वाक्यं रचयितुं इच्छति तत्र नियमः कः इति मम प्रश्नः. इत्युक्ते किं
वाक्ये क्रियापदानि
यदि
क्रिया
वयं किमपि वाक्यानि रचयितुम् इच्छन्ति इत्युक्ते यदि पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः योजयित्वा वयं किमपि वाक्यानि रचयितुम् इच्छन्ति व्याकरणे नियमः कः तत्र? पश्यतु तत्र
इति पदानि अव्ययपदे सन्ति. All these would be avyayapada. Is that what? मतलब मैं कह रही थी कि ये सब पद अव्यय पद हैं. ओह
हाँ हाँ, ते सर्वे अव्यय अव्यय पदानि सन्ति. उत्तमम्. अव्यय पदानि योजयित्वा नियमः कः? तस्य पूर्वस्य पदं कीदृशपदम्?
तस्य पूर्वस्य पदं षष्टिविभक्तिपदम्.
सर्वदा षष्टिविभक्ति योजयित्वा एतानि पदानि समीचीनम् सन्ति. इत्युक्ते मम पुरतः, तस्य पुरतः, भवत्याः पुरतः, भवतः पुरतः, पुस्तकस्य पुरतः, किमपि. पुरतः इत्युक्ते किम्? ललिता भगिनी नमस्कारः.
नमस्कारः.
You came by mistake. I'll see you in our next class.
Correct. This class, actually.
This one, beginner Sanskrit, beginner.
No problem. Okay, nice talking to you. Bye.
Namaste, beginner.
Bye. Yeah.
Namaskar. Astu. Haan, ekavaram. पुनः नमस्कारः. अस्तु, शैलजा भगिनी पुनः वदतु, पुरतः इत्युक्ते किम्? शैलजा भगिनी अस्ति वा?
Bhagini, sorry, I did not unmute. Puratah asti chet artah front side.
Aage. Puratah ityukte in front of. Prishtatah ityukte?
Prishtatah is backwards. Or
Piche.
Behind.
Behind. Vamatah?
Vamatah is left side of you.
Vamatah. Apicha dakshinatah?
Dakshinatah is right side of you. And upari is upwards of you. And adah is downwards of you.
Papaji ekam prashna prashnah prishtavan tatra kimartham dakshinatah iti padam asti tatra artha uttaram kim kopi janati va
dakshinatah when we stand towards east and the right side of the direction is always south. So that's the reason dakshinatah.
Tattu satyam. Kintu mama prashna kimartham iti padam dakshinatah. Kimartham iti padam? Dakshinatah ityukte kim? Dakshinatah ityukte kim? Kopi janati va?
You said the meaning is like daksha is something who is nipuna or expert.
Tadeva.
And Daksha Mahamuni is also father of Parvati Bhagini?
No.
Goddess Parvati. Daksha.
Daksha. Daksha. Uttamam. Dakshana Muni. Uttamam. Angla Bhashayam tu ekam padam asti. Dexterous. Samaneva. Samskrita Bhashaya taha Bhashaya taha eva ayati. Dexterous. Dexterous ityukte kim? Skilled. Very skilled, highly skilled, dexterous. Usually dexterous means with hands, fingers, very good with fingers, good at writing, knitting, all work, very fine work, dexterous. Uttamam, upari, adaha. Sarvani padani, kidrusha padani?
Avyaya padani santi.
Avyaya
sarvani padani.
Uttamam, uttamam. Ha, Deepshika bhagini, swasya. Kimapi padam yojayitva tatra sasya vakyam ekam rachayatu bhagini.
Bhagini, are you asking me? Sorry.
Na, Deepshika bhagini, kshamyatam bhagini.
Aam bhagini.
Deepshika bhagini vadatu.
Balakasya puratah. Balakasya puratah shakatah asti.
Asti. Balakasya puratah shakatah. Balakasya prishtatah kim asti?
Balakasya prishtatah.
Kim asti?
Balakasya prishtatah Syutah asti.
Syutah asti.
Prashtatah syutah asti.
Syute kim asti?
Syute. Back ke upar.
Saptami.
Saptami na. So,
saptami ityukte adhikarana.
Me par na. So, bag me. Achha, bag me. Syute pustakam asti.
Pustakani
asti.
Asti va?
Present.
Pustakani. Kriyapadam samikarotu. Pustakani bahuvachana.
Santi.
Uttamam.
Uttamam. Pustakani santi.
Uttamam. Dhanyavadaha. Astu. Papaji agrima pute. Ityukte. Agrima pute. Ityukte puta sankhya kim tatra kopi vadatu?
द्वित्रिंशति
द्वित्रिंशति तु समीकरोतु भगिनि द्वात्रिंशत्तमे पुटे रक्तवर्णानि सन्ति हा पठतु पापाजी कृपया
एतत् चित्रं पश्यतु अनन्तरम् एतानि वाक्यानि शुद्धानि वा इति लिखति
इत्युक्ते इत्युक्ते किं मिनि एतत् चित्रं पश्यतु इत्युक्ते
इसके बाद देखने के बाद अनंतरम इसके बाद जो नीचे दिए वाक्य हैं उनको शुद्ध या अशुद्ध बताकर
उत्तम लिखतु लकार किम तत्र कोपि जानाति वा
लोट् लकार शब्दः प्रथम पुरुषे एकवचन शब्दः अस्ति
मध्यम पुरुष एकवचन अस्ति चेत् किम् तस्य रूपं
किम्
इत्युक्ते त्वं
तां लिखतां
त्वं लिख उत्तमं त्वं लिख अहं
लिखानि
नि आयाति तत्र एकवचन उत्तमपुरुषरूपे लट् लोट् लकारे लिखानि इत्युक्ते किम् अहं लिखानि इत्युक्ते किं मम प्रश्नः यदि अहं वदामि अहं लिखानि इत्युक्ते किम्
May I write?
Plural of writing, Bhagini. So many sentences to write. Please write so many.
Likhani to Likhani. Bhagini. Eka vachana rupa.
Aha. Bhagini.
Eka vachana meva. Bahu vachanam nasti tatra. May I write to samichinam sudha Bhagini? Kintu artha kaha? Kimartham vayam vadama may I write? इत्युक्ते किम्
ऐ विल् रैट्
आज्ञा लिखतु इस् मे ऐ रैट् सिङ्ग्युलर् आर्धना प्रार्थना लोट् लकार
किमर्थं कोऽपि वदति मे ऐ रैट् नो नीड् किमर्थं मे ऐ रैट्
टु सीक् पर्मिशन् मेबि इन् अन् आन् गोयिङ्ग् क्लास् इफ् द स्पीकर् इस्
आल्रेडि द लिखतु शब्दः इट्सेल्फ्
एकनिमेष शैलजा भगिनी कविता भगिनी वदतु
मे बी इन् एन् आन् गोयिङ्ग् क्लास् इफ् द टीचर् इस् नाट् कम्फर्टेबल् स्टूडेण्ट्स् यु नो रैटिङ्ग् आर् सम् टेकिङ्ग् डौन् रनिङ्ग् नोट् सो ऐ विल् आस्क् सीक् युर् पर्मिशन् लेट् मे ऐ प्लीस् रैट् दिस् वेसा
अहं तु तत् अर्थं तु न पश्यामि किन्तु आज्ञा इत्युक्ते इट् इस् प्रेरणार्थे प्रेरणार्थे मे ऐ रैट् लिखतु इत्युक्ते किं प्रेरणार्थे एव आज्ञा एव प्रेरणार्थे मे इट् बी देट् यु रैट् न लिखतु इत्युक्ते किं मे इट् बी देट् रामः रैट् मे इट् बी देट् सीता रैट् किमपि लोट् इत्युक्ते किं लोट् इत्युक्ते आज्ञा अपि प्रार्थना आज्ञा इत्युक्ते नाट् कमाण्ड् एस् पीपल् थिङ्क् आज्ञा इत्युक्ते कमाण्ड् न इति तु न आज्ञा इत्युक्ते प्रेरणार्थे आज्ञा अस्तु उत्तमं हा दीक्षिका भगिनी पठतु प्रथमवाक्यम्
गृहस्य पुरतः वृक्षः अस्ति घर के सामने वृक्ष है
करेक्ट ना संस्कृत भाषायां वदतु
अस्ति.
हा, गृहस्य पुरतः वृक्षः अस्ति. समीचीनं वा?
समीचीनं
वाक्यं. समीचीनम्. अपि च वाक्यम् उत्तमम्.
वाक्यम् उत्तमम्.
अपि च वाक्यं सत्यम्.
अपि च वाक्यं सत्यम्.
उत्तमम्.
वाक्यं सत्यम्.
गृहस्य पुरतः वृक्षः अस्ति. आम्, गृहस्य पुरतः वृक्षः अस्ति. समीचीनम्. उत्तमम्. अस्तु, शिविरूपा भगिनी अग्रिमं करोतु.
पृष्ठतः भगिनी
न, अग्रिमं वाक्यं भगिनी पठतु. पुटसङ्ख्या किं? द्वात्रिंशत्तमे पुटे.
आं भगिनि.
द्वितीयबिन्दु पठतु.
आं भगिनि. बालकः
भगिनि. द्वितीयबिन्दु भगिनि. तृतीय तु न, इत्युक्ते गृहस्य वामतः.
गृहस्य वामतः उद्यानम् अस्ति. वाक्यपरिचय वदति वा भगिनि?
न अभ्यासपुस्तकं
मध्ये
न भगिनि, 8.2 तत्तु समीचीनं. रक्तवर्णानि उपरि भागे पश्यतु. रक्तवर्णानि एकं पठतु.
एतत् चित्रं पश्यतु, अनन्तरम् एतानि वाक्यानि भगिनि
शुद्धानि
अशुद्धानि वा इति लिखतु.
इत्युक्ते
नीचे चित्र देखे बाद में वाक्य जो दिया है उसमें गलत कौन सा है और सही कौन सा है लिखना है.
तदेव. हा, द्वितीय बिन्दु अधुना करोतु.
गृहस्य वामतः उद्यानम् अस्ति. न, गृहस्य वामतः उद्यानं नास्ति.
सत्यं किम्?
सत्यं गृहस्य वामतः पर्वतः अस्ति.
पर्वतः अस्ति. उत्तमं. पर्वतः अस्ति. अपि च गृहस्य वामतः किं? गृहस्य उद्यानं कुत्र अस्ति तत्र?
उद्यानं पर्वतः पुरतः अस्ति.
अपि च गृहस्य
अपि च गृहं पर्वतः वामतः गृहमस्ति.
न समीकरोतु भगिनि. षष्टिविभक्ति योजना.
पर्वतस्य वामतः गृहमस्ति. पुरतः वृक्षः अस्ति.
न भगिनि, गृहस्य उद्यानं कुत्र अस्ति इति मम प्रश्नः भगिनि. एकं गृहमस्ति, एकम् उद्यानमस्ति, वदतु सम्बन्धः कः तत्र?
गृहमस्ति, उद्यानं नास्ति भगिनि.
उद्यानं नास्ति वा तत्र? तदेव उद्यानमेव.
पर्वतः पुरतः वो अस्ति, वो उद्यानवनम् उद्यानम् अस्ति वा भगिनि?
ओ, यु आर् थिङ्किङ्ग् दट् इस् उद्यानम्. अस्तु अस्तु, किमपि अहं मन्ये यत्र बालकः अस्ति तदेव उद्यानम्.
ओ ओके, वृक्षः अस्ति.
वृक्षः अस्ति, किमपि प्लेस्टेशन् एव्रिवेर् न.
ओके ओके भगिनि. सो देन् पर्वतस्य पुरतः उद्यानमस्ति बोले कहे भगिनी.
अस्तु अपि च एकं गृहम् अस्ति एकम् उद्यानम् अस्ति सम्बन्धः कः तत्र
भगिनि
न वदतु दीप्षिका भगिनि
गृहस्य पुरतः उद्यानम् अस्ति
पुरतः गृहस्य वामतः वा न गृहस्य वामतः किं भगिनि दक्षिणतः तत्र नो गृहस्य भगिनि गृहस्य बिलोङ्गिङ्ग् टु हौस् हाथ घर के अगर दो हाथ होते
अच्छा देन इट वुड बी दक्षिणतः
उत्तमम् अस्तु यदि तत् उद्यानं गृहस्य दक्षिणतः अस्ति चेत् तदनन्तरं तु शिवरूपा भगिनी भवती सत्यमेव भवत्याः वाक्यं धन्यवादः भगिनी
धन्यवादः भगिनि
उत्तमम् अस्तु कविता भगिनी अग्रिमं पठतु
बालकः वृक्षस्य उपरि अस्ति इति वाक्य अशुद्ध अस्ति
वाक्यलिङ्गं किम्
वाक्य अल्टिमेट् वाक्य नपुंसकलिङ्ग इति वाक्यम् अशुद्ध अस्ति
अशुद्धम् इति वाक्यम्
अशुद्धं
तदेव
शुद्धम् अस्ति
अस्तु अस्तु बालकः अस्तु सत्यं किं भगिनी कविता भगिनी वदतु
बालकः वृक्षस्य अधः अस्ति
बालकः वृक्षस्य अधः अस्ति उत्तमं वृक्षस्य उपरि किम् अस्ति
वृक्षस्य उपरि वानरः अस्ति
वानरः अस्ति वानरः किं करोति
वानरः नारिकेलफलं तोड्रः
इच्छति
इच्छति
उत्तमम् उत्तमं नारिकेलं फलम् इच्छति उत्तमं धन्यवादः भगिनी सुधा भगिनी
आं भगिनी
अग्रिमं पठतु
वृक्षस्य अधः वृद्धः अस्ति इति वाक्यम् अशुद्धम् अस्ति शुद्धवाक्यम् अस्ति वृक्षस्य अधः बालकः अस्ति
बालकः अस्ति यौवनम् अस्ति यौवनबालकः अस्ति युवकः अस्ति युवकः अस्ति सत्यम् अस्तु युवकः किं करोति
युवकः हस्तेन नारिकेलफलं
युवकस्य हस्ते तु नारिकेलफलं तु नास्ति तत्र
हस्तेन नारिकेलफलं को हि इस् ट्रैङ्ग् टु गेट् इट् वित् द दण्ड
न न न संस्कृतभाषायां वदतु भगिनि युवकः
युवकः
वानरं
ताडयति
ताडयति ताडयति ताडयति इत्युक्ते किं स्कोल्डिङ्ग्
ओ ताडयति
डाड्रास्को
सॉरी भगिनी, इसमें हम लोट लगा नहीं लगा सकते कि ऐसा हो कि वो वहां से निकल जाए अपने आप
ओ हाँ इत्युक्ते युवकः इच्छति वानरः गच्छतु
समीचीनम्
युवकः वदति वानरः गच्छतु वानर गच्छतु भोः वानर गच्छतु नमस्कारः किन्तु अधुना गच्छतु इति क्षम्यतां वानर क्षम्यतां वानर गच्छतु नारिकेलफलं स मम इच्छति नारिकेलफलं
या तो फिर ही कैन से के आप तोड़कर नीचे डालो ताकि हम सब भी एंजॉय कर सके
हे वानर साहाय्यं करोतु इति अपि समीचीनम् हे वानर साहाय्यं करोतु वानरः पृच्छति कीदृशसाहाय्यं भवान् इच्छति ओ युवकः वदति अहं नारिकेलफलम् इच्छति ददातु न वानर साहाय्यं करोतु
वो टोपी वाले का स्टोरी आता है ना भगिनी के सारे बंदर टोपी लेकर चल जाते हैं पेड़ पे फिर उसका कॉपी करते हैं
आई हैव द संस्कृत ऑफ दैट आई विल फाइंड इट फॉर यू उत्तम हाँ उत्तमम धन्यवाद अधुना हाँ दीपशिका भगिनी अग्रिम पठतु पंचबिंदु
गृहस्य पृष्ठतः मार्गः अस्ति अपि च वाक्यं सत्यं नास्ति अशुद्धं
किमर्थम् अशुद्धम् इत्युक्ते किं गृहस्य
गृहस्य पृष्ठतः पर्वतः अस्ति
किन्तु
मार्गः नास्ति गृहस्य पृष्ठतः मार्गः नास्ति
चित्रे मार्गः नास्ति किन्तु गृहस्य पृष्ठतः वान वा तु वयं न जानीमः न वयं न जानीमः कथं जानीमः तत्तु गृहस्य पृष्ठतः भागः एव नास्ति तत्र चित्रे इत्युक्ते किं चित्रे गृहस्य पृष्ठतः मार्गः नास्ति
तत्तु सत्यं पृष्ठतः दक्षिणतः मार्गः अस्ति
पृष्ठतः दक्षिणतः वा भगिनि
गृहस्य दक्षिणतः मार्गः अस्ति
कुत्र भगिनि ड्रोन् वन् अस्तु उत्तमं भगिनि उत्तमम् अस्तु मार्गः कुत्र अस्ति भगिनि पुनः वदतु
मार्गः दक्षिणतः अस्ति
कस्य दक्षिणतः
गैप बिटवीन द हाउस एंड द फेंस
अस्तु कुत्र अस्ति मार्गः पुनः वदतु वाक्यं समीकरोति
गृहस्य दक्षिणतः मार्गः अस्ति
अस्तु दीपशिखा भगिनी कैन सी विदाउट ग्लासेस उत्तमम् उत्तमं भगिनी उत्तमम् अस्तु सुधा भगिनी कृतवती वा
आं भगिनि अहं
शैलजा भगिनी करोतु भगिनि
आं भगिनि बालकस्य हस्ते नारिकेलफलम् अस्ति इति वाक्यम् अशुद्धम् अस्ति बालकस्य हस्ते दण्डः अस्ति.
दण्डः लिङ्गं किं तत्र?
दण्डः इति शब्दः पुल्लिङ्गशब्दः नपुंसकलिङ्गशब्दः अस्ति भगिनि, स्तः भगिनि. द्वे लिङ्गे स्तः.
द्वे समीचीनं, द्वे स्तः. अस्तु, लिङ्गद्वयं,
लिङ्गद्वयं स्तः.
उत्तमम् उत्तमम्. इत्युक्ते पुनः वदतु, बालकस्य हस्ते,
बालकस्य हस्ते दण्डः अस्ति.
दण्डः अस्ति. दण्डेन किं करोति तत्र बालकः?
भगिनि, केन् यु प्लीस् रिपीट्? ऐ गाट् ब्रेक्.
बालकः दण्डेन किं करोति?
दण्डेन वानरं, वानरं दट् मीन्स् वानर् को स्कोल्डिङ्ग् ताडयति ताडयति. वानरं बालकस्य हस्तेन वानरं ताडयति.
बालकस्य हस्तेन दण्डेन वा हस्तेन वा?
बालकस्य दण्डेन वानरं ताडयति.
बालकस्य दण्डेन वा?
बालकः दण्डेन वानरं ताडयति. सारी फर् द कन्फ्यूशन् भगिनि.
उत्तमं. बालकः ताडयति. केन ताडयति? दण्डेन ताडयति.
दण्डेन ताडयति.
कं ताडयति? वानरं ताडयति.
वानरं ताडयति. द्वितीयविभक्ति. आं भगिनि,
उत्तमं, धन्यवादः. अस्तु, अस्तु. किं हा पापाजी, चित्रे अन्य किमपि अस्ति वा? चित्रे अन्य किमपि अस्ति वा? चित्रे कुक्कुटः
अस्ति.
कुत्र अस्ति कुक्कुटः?
वृक्षस्य अधः अस्ति.
वृक्षस्य अधः अस्ति. अपि च बालकस्य सम्बन्धः कः कुक्कुटस्य?
बालकस्य वामभागे अस्ति.
बालकस्य
वामतः
किम् अस्ति?
बालके वामतः कुक्कुटः अस्ति.
बालकस्य
वामतः कुक्कुटः एकः कुक्कुटः
अस्ति. अस्ति. कुक्कुटः किं करोति?
कुक्कुटः कुक्कुटं करोति.
तत्तु न जा अहं तु न जानामि कथं वदामः. कुक्कुडुकु वदति, शब्दः करोति. शब्दः
बाङ्ग्
वा? बाङ्ग् वा? बकार भकार? बकार तु नास्ति तत्र. अच्छा, आङ्ग्लभाषायां किमपि पदम् अस्ति तत्र?
क्रोज़.
क्रोस् तु नास्ति तत्र स्पोकन् संस्कृत मध्ये तु नास्ति. अस्तु, अहं तु न जानामि, क्षम्यताम्. अस्तु, अन्य किमपि अस्ति तत्र? वृक्षः कीदृशवृक्षः अस्ति तत्र, कोऽपि वदतु?
नारिकेलवृक्षः.
नारिकेलवृक्षः कीदृश अस्ति? उन्नतः अस्ति. उन्नतः इत्युक्ते ऊचा.
भगिनि, crowing of a cock इति spoken Sanskrit मध्ये कुक्कुटध्वनि दत्तम्.
हा, ध्वनि शब्दः अपि. हा, ध्वनि, कुक्कुटध्वनि. किन्तु तत्तु समीचीनं, किन्तु स्पेसिफिक् नास्ति. ध्वनि तु सर्वे करोति. उत्तमं, धन्यवादः भगिनि. हा, नारिकेल वृक्षः उन्नतः अस्ति. अपि च नारिकेलवृक्षे कति फलानि सन्ति?
षट् फलानि सन्ति भगिनि.
उत्तमं भगिनि. षट् फलानि सन्ति. षट् फलानि सन्ति. कति पत्राणि सन्ति?
अष्टपत्राणि सन्ति.
अष्ट वा? अस्तु, अष्ट, नव. उत्तमं, धन्यवादः भगिनि. अन्य किमपि अस्ति तत्र? गृहस्य पुरतः वातायनम् अस्ति वा?
वातायनम् अपि द्वारमपि अस्ति भगिनि.
कुत्र अस्ति?
पुरतः, गृहस्य पुरतः वातायनं च द्वारम् अस्ति.
उत्तमम्, उत्तमं, धन्यवादः. अस्तु, अन्य किमपि अस्ति तत्र? आम्, किन्तु पुरतः भागे, पुरतः एव. हम लोग हिंदी में भी ऐसे ही बोलते हैं.
सामने खिड़की, दरवाजे, पीछे भी दरवाजे.
घर के, हम लोग घर के ही बोलते हैं. घर के आगे खिड़की है, इसे लगता है हिंदी ना. आगे
घर के सामने वाली खिड़की.
सामने वाली खिड़की. वाह,
सामने वाली खिड़की में
ग्रहे.
ग्रहस्य अग्रभागे.
हाँ, ग्रहस्य पुरतः भागे वातायनं द्वारं च स्तः. उत्तमं, हा, उत्तमं, धन्यवादः पापाजी. गृहस्य उपरि भागः किम् अस्ति तत्र? एकम् गृहस्य उपरि भागः किम् अस्ति? एकः छदि अस्ति. छदि इत्युक्ते किम्? छत्,
रूफ.
रूफ, छदि, छदि अस्ति.
फेन्स् लैक् स्ट्रक्चर् एज़् वेल्.
हा, फेन्स् इत्युक्ते किं भगिनी संस्कृतभाषायां वदतु?
वृति.
हा, वृति अपि एकम् अन्य शब्द अपि अस्ति.
मेनि, शल्य, प्रावर, ताल, शीलाटक.
परिश्रयति इति अहम् एकवारं
परिधायक.
हा, परिधायक.
परिश्रय,
परिश्रय. हा, एकः परिश्रयः अस्ति. तत्र चित्रे एकः विशालपरिश्रयः अस्ति. उत्तमम्,
उत्तमं धन्यवादः
एकः विशालः
परिश्रयः सेन्स्
परिश्रय
वा कुत्र अस्ति परिश्रयः कुत्र अस्ति बालकस्य वदतु
दक्षिणतः
पूर्णतया
उन्नतः अस्ति
उन्नतः वा उन्नत इत्युक्ते किं भगिनि
बिकास् इट् इस् आल्सो है नो भगिनि रूफ् इस् आल्सो है
अस्तु अस्तु छदि उन्नतः अस्ति मम प्रश्नः तु भिन्न परिश्रयः कुत्र अस्ति
आं भगिनि दक्षिणतः बालकस्य दक्षिणतः
बालकस्य
दक्षिणतः वामन परिश्रय अस्ति
अस्ति वा शार्ट् अस्ति वा दूरे अस्ति भगिनि तदपि विशाल अस्ति
Yeah, in comparison to the tall coconut tree, it is short. That's how I wanted to say it.
Dure asti.
Dure
asti. Okay. Uttamam. Astu. Astu, graha paatha rupena. Astu, ekavaram swasya, shigram swasya vakyam rachayatu. Etani padani yojayatva kimapi. हा आरम्भं करोतु कविता भगिनी भवती एव आरम्भं करोतु किमपि वदतु भगिनी
बेस्ड् आन् दिस् पिक्चर्
न न न किमपि मम गृहस्य पुरतः वा मम यानस्य पृष्ठतः वा किमपि वदतु मम मित्रस्य किमपि
मम गृहस्य अधः वृक्षे वृक्ष वेट् आन्से देर् आर् ट्रीस् बिनीत् मै हौस् सो वृक्षाः सन्ति मम गृहस्य अधः वृक्षाः सन्ति
कथं भगिनि कथम् अस्ति तत्र
Sorry, Vruksha is masculine, no?
Kintu, you live in a tree house, Bagini.
No. Niche, adaha. I'm on the third floor. So, niche, building ke premises mein hai.
It should say, purataha va, prishtataha va. Adho tu it should say, grahasya adho it should say, एकम् अन्यग्रह गृहम् अस्ति न
हा हा राइट तो मतलब सामने या नीचे ही आएगा ऐसे मतलब सॉरी पीछे ही आएगा वैसे
हा
हा हा तो सामने सो पुरतः
मम ग्रहस्य अधो भागे अधो मम ग्रहस्य अधः ग्रह द्वयं स्तः तयोः पुरतः बहवः वृक्षाः सन्ति इत्युक्ते किं तयोः इत्युक्ते किम्
उस्के
न न न विभक्तिरूपं किं वचनं किं
तयोः
कोऽपि जानाति वा हा षष्ठी
द्विवचनरूपं
द्विवचने इत्युक्ते मम गृहस्य अधः गृहद्वयं स्तः तयोः पुरतः बहवः वृक्षाः सन्ति इत्युक्ते
बहवः मेरे घर के नीचे दो घर हैं उनके सामने की बाजू में बहवः वृक्षः है
हाँ बहवः इत्युक्ते
बहवः मतलब बहुत सारे
तदेव पुंलिङ्गपदम्
बहवः ओके ओके मेरे को वहवः सुनाई दे रहा था इसलिए मैं मतलब समझ नहीं पा रही थी
अस्तु बहवः उत्तमम्
धन्यवाद
उत्तमं धन्यवाद भगिनी सुधा भगिनी
आं भगिनी मम वामतः द्वे निदानिके स्तः
मम वामतः द्वे निधानिके सः द्वे निधानिके सः निधानिके किम्
निधानिका इति शेल्फ् अस्ति
इत्युक्ते निधानिके पूर्णतया परिचय वदतु भगिनि निधानिके इत्युक्ते
निधानिके इत्युक्ते द्विवचन दीर्घ आकारान्त स्त्रीलिङ्ग अस्ति
स्त्रीलिङ्गं पदं प्रातिपदिकं निधानिका अस्ति चेत् प्रथमविभक्ति द्विवचनरूपं निधानिके
क्षम्यतां भगिनि ह्रस्व इकारान्त
अस्ति वा निधानिका वा
निधानिका सो इट इज शोइंग एज अ स्मॉल ई की मात्रा दोनों नी पे
अस्ति वा
और जो लंबी ई की मात्रा है निधानी करोति दैट इज पाइल अप
ना निधानिका इति दत्तं भगिनी
ऋत्व ईकारान्त फॉर शेल्फ
न भगिनी ह्रस्व नास्ति
का अन्तमे दीर्घ आकारान्त अस्ति
अहं प्रेषयामि एकनिमिषं
ओ आई एम सो सॉरी मैं का को मिस ही कर रही हूं मैं सिर्फ नी पे फोकस कर रही हूं आई एम सो सॉरी
हां 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 पश्यति न निधानिका रमावत अस्ति
यस यस अंडरस्टूड अंडरस्टूड सॉरी माय मिस्टेक
उत्तमं न न न चिंता मास्तु उत्तमं भगिनी धन्यवादः
धन्यवादः
हां शैलजा भगिनी वदतु
आं भगिनि मम पुरतः त्रीणि द्वारताः सन्ति
त्रीणि पुनः वदतु
मम पुरतः त्रीणि द्वारताः सन्ति द्वारता इति शब्दः स्त्रीलिङ्गशब्दः प्रातिपदिकं द्वारता बहुवचनशब्दः द्वारताः
द्वारता इत्युक्ते किम्
द्वारता इत्युक्ते डोर्स् डोर्
न सो हा त्रीणि तु नास्ति किं पश्यतु एकवारं हा द्वारं
तिस्रः भगिनि तिस्रः द्वारताः सन्ति
द्वारताः सन्ति उत्तमं द्वारताः इत्युक्ते द्वारम् द्वारं तु नपुंसकलिङ्गं पदं द्वारता स्त्रीलिङ्ग
द्वारता स्त्रीलिङ्गशब्दः
उत्तमं धन्यवादः भगिनी दीप्षिका भगिनी
मम वामतः वातायनम् अस्ति
वातायनम्
अस्ति मम वामतः वातायनम्
अस्तु धन्यवादः भगिनी पपजी किमपि वाक्यं पुरतः अधः उपरि किमपि योजयित्वा
मम वामभागे
मम वामतः
दीपा अस्ति
उत्तमम् उत्तमं सुन्दरम् शिवरूपा भगिनी
मम गृहस्य पुरतः कार्यानानि सन्ति
कार्यानानि इति पदस्य परिचय वदतु
कार्यानम् इति नपुंसकलिङ्गम् एकवचनपदमस्ति
कार्यानम् इत्युक्ते किम्
कार्
So there are so many cars standing. So it's a car yanani santi.
Yanam car yanam. Adhunik shabdah. Car yanani santi. Bahuni car yanani.
Bahuni car yanani santi.
नपुंसकलिङ्गम् अस्ति चेत् बहूनि इति
बहूनि
कार्याणि संस्कृतभारती मध्ये उत्तमम् अस्तु सर्वे उक्तवन्तः वा रूपं वाक्यम् अस्तु अस्तु सुन्दरं धन्यवादः अद्य दीप्षि
भगिनी I got one question bhagini ashtadhyayi me like bhutakal shabdah atherno bhagini so I want to ask you like what words do I have to use for past tense sentences because recently we have a conversation with Shivarupa bhagini that she is having different words for bhutakal but ashtadhyayi words are different from what she is having so I'm confused like what word should I use
अस्तु अस्तु प्रश्नः तु समीचीनं व्याकरणे मार्ग मुख्यतया स्थूलरूपेण मार्गद्वयं सन्ति इत्युक्ते एकमार्गः तु लकारैः मार्गः इत्युक्ते लङ् लकार अस्ति चेत् भूतकालार्थक अस्ति लङ् लकार किन्तु मार्गद्वयमस्ति द्वितीयमार्गस्य प्रत्ययान् योजयित्वा समानार्थकपदानि निष्पन्नं भवति ते योजयित्वा वाक्यानि अपि प्रसिद्धानि इत्युक्ते किं यथा पठ धातुतः अपठत् अस्ति अपठत् इत्युक्ते रामः अपठत् इत्युक्ते किं भूतकालार्थक राम ने पढा इत्युक्ते राम रेड् किन्तु यदि वयं मार्ग द्वितीयमार्गस्य योजयित्वा इति समानार्थकवाक्यं रचितुम् इच्छति चेत् तदनन्तरं रामः पठितवान् अपि समीचीनं द्वे अपि समीचीनं किन्तु वन् यूसेस् प्रत्ययस् विच् आर् नाट् लकारप्रत्यय and the other uses lakara pratyaya only and in ashtadhyayi only the lakaras are given the pratyaya rupas are not there yet I think they are working on it avagatam va
bhagini so I can use either of them but
you should know bhutkal arthakasti chet
yeah for what
lang lakar लङ् इत्युक्ते
सो लङ् लकार फोर् फोर् पट् धातु इस् अपठिष्यत् इन् इन् परस्मैपदम्
अपठत् अपठत् पश्यतु एकवारं पश्यतु तत्र अष्टाध्यायी अपठत् लङ् लङ् इति
भगिनि
लङ् अपठत् यस् भगिनि अपठत्
पठितवान् इन् केस् आफ् पुंलिङ्गम्
स्त्रीलिङ्गं पठितवत् नपुंसकलिङ्गं वदतु
दिस् इस् फार् पास्ट् टेन्स् रैट् भगिनि
भूतकालार्थक उत्तमं
पठितवान् अण्ड् अपठत् वेन् वी केन् यूस् इन् बोत् केसेस् भगिनि
यु चूस् विवक्ष
इस् देयर् लिङ्ग् डिफरेन्स् आल्सो
भवत्याः विवक्षा अस्ति भगिनी योर् चोय्स्
समानार्थक तत्
ओके वी केन् यूस् वट्
इट् वाट् मेक्स् अ लेङ्ग्वेज् रिच् सो मेनि वेस् टु से द सेम् थिङ्ग् so many words to express the same thing. That is why you can have this rich verse. No, shlokas, how many shlokas are there in Sanskrit? Millions. How we have so many shlokas? Because the language is so rich. There are so many options you can use to say what you want to say with the right rhythm, right meter. Mama, me. What is the point? Why you have to have mama and me? Because some places in verse, I only have one syllable. I only have space for one syllable. Then I need to say my. Then how will I say? So, me. That's what makes a language beautiful and rich. Similarly,
Bhagini, there is no... Lingam difference is not there in... Astadhyayi, but what Bhagini is having, like Shivarupa Bhagini, she is saying like different words for different lingam. So again, I got confused there also.
So, lakarasya kriya padani santi chet kimapi linga bheda nasti. Ityukte lat lakarva, lang lakarva, kimapi lakarasya nishpannam kriya padani chet किमपि लिङ्गभेदः नास्ति रामः पठति सीता पठति समानेव किन्तु कश्चन प्रत्ययः लिङ्गभेदः सन्ति कश्चन प्रत्ययः लिङ्गभेदः नास्ति तत्र प्रत्यय परिशीलयित्वा वाक्यं रचयतु इत्युक्ते किं तदेव इत्युक्ते तव तु प्रत्यय योजयित्वा पठितवान् पठितवती इति आयाति तत्र किम् अभवत् तत्र लिङ्गभेदः अस्ति किन्तु दृष्ट्वा त्वान्तप्रत्ययः अस्ति तत्र तु किमपि लिङ्गभेदः नास्ति वचनभेदः नास्ति किमपि भेदः नास्ति विभक्तिभेदः नास्ति किमपि अव्ययपदमस्ति तत्र तु सो इट् डिपेण्ड्स् आन् द प्रत्यय यु यूस् सम् प्रत्ययस् विल् हेव् लिङ्गभेद वचनभेद अदर्स् विल् नाट् यु हेव् टु नो ईच् प्रत्यय सेपरेट्लि अवगतं वा
आं भगिनि only for few words there are lingabhedam not for all the words we have to be
not
aware
not for words to... not you cannot say words bhagini pratyaya suffix
dhatu
no not dhatu also.
suffixes yeah.
some suffixes will have all that some will not lakara also uses suffixes pratyaya is also a suffix they both use but they have different suffixes all the lakara suffixes will not have any lingabheda but the pratyaya suffix which are not lakara suffixes it depends on the pratyaya that's what I mean avagatam
ram
bhagini dhanyavad bhagini
ha astu
dhanyavad bhagini
ha shivrupa bhagini antima shanti patha vadati
ram bhagini om purnamada पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ तत्सत् ॐ सर्वं श्रीकृष्णार्पणमस्तु
धन्यवादः भगिनी सुन्दर
धन्यवादः
नमस्कारः सर्वेभ्यः नमो नमः
नमस्कारः
धन्यवादः भगिनी
धन्यवादः
धन्यवादः भगिनी